स्वयं भुवे नमस्तुभ्य मुत्पाद्यात्मानमात्मनि स्वात्मनैव तथोद्भूत वृत्तये चिन्त्य वृत्तये नमस्ते जगतां पत्ये लक्ष्मी भर्त्रे नमो नमः विदांवर नमस्तुभ्यं नमस्ते वदतांवर कामशत्रुहणं देव मामनन्ति मनीषिणः त्वामानमत्सुरेण्मौली भामालाभ्यर्चितक्रमम् ध्यानद्रुहण निर्भिन्न घनघाति महातरुः अनंत भव संतान जयादासीरनंत जित त्रैलोक्य निर्जयावाप्त दुर्दर्पमति दुर्जयम् मृत्युराजं विजित्यासि जिन मृत्युंजयो भवान् विधूताशेष संसार बंधनो भव्य बांधवः त्रिपुरारिस्त्वमीशोऽसि जन्म मृत्युजरांतकृत त्रिकाल विषयाशेष तत्वभेदात्रिधोत्थितं केवलाख्यं दधच्चक्षुस्त्रिनेत्रोऽसि त्वमीशितः त्वामन्धकान्तकं प्राहुर्मोहान्धासुरमर्दनात् अर्धं ते नारयो यस्मादर्धनारीश्वरोऽस्यतः शिवः शिवपदाध्यासाद् दुरितारिहरो हरः शङ्करः कृतशङ्लोके शम्भवस्त्वं भवन् सुखे वृषभोऽसि जगज्येष्ठः पुरुः पुरुगुणोदयैः नाभेयो नाभिसम्भूते ऋक्ष्वाकुकुलनन्दनः त्वमेकः पुरुषस्कन्धस्त्वन्द्वे लोकस्य लोचने त्वं त्रिधा बुद्धसन्मार्गस्त्रिज्ञस्त्रिज्ञानधारकः चतुः शरणमाङ्गल्य मूर्तिस्त्वञ्चतुरस्रधीः पञ्च ब्रह्ममयो देव पावनस्त्वं पुनीहि माम् स्वर्गावतरणी तुभ्यं सद्यो जातात्मने नमः जन्माभिषेक वामाय वामदेव नमोऽस्तु ते सुनिष्क्रान्तावघोराय परं प्रशममीयुषे केवलज्ञानसंसिद्धा वीशानाय नमोऽस्तु ते पुरस्तत्पुरुषत्वेन विमुक्तिपदभागिने नमस्तत्पुरुषावस्थां भाविनीं तेद्य बिभ्रते ज्ञानावरणनिर्ह्रासान् नमस्ते नन्तचक्षुषे दर्शनावरणोच्छेदान् नमस्ते नन्तदृश्वने नमो दर्शनमोहग्ने क्षायिकामलदृष्टये नमश्चारित्रमोहग्ने विरागाय महौजसे नमस्ते नन्तवीर्याय नमो नन्तसुखात्मने नमस्ते नन्तलोकाय लोकालोकावलोकिने नमस्ते नन्तदानाय नमस्ते नन्तलब्धये नमस्ते नन्तभोगाय नमो नन्तोपभोगिने नमः परमयोगाय नमस्तुभ्यमयोनये नमः परमपूताय नमस्ते परमर्षये नमः परम विद्याय नमः परम तच्छिदे नमः परम तत्वाय नमस्ते परमात्मने नमः परम रूपाय नमः परम तेजसे नमः परम मार्गाय नमस्ते परमेष्ठिने परमर्धिजुषे धाम्ने परमज्योतिषे नमः नमः पारे तमः प्राप्त धाम्ने परतरात्मने नमः क्षीणकलङ्काय क्षीणबन्धनमोऽस्तुते नमस्ते क्षीणमोहाय क्षीणदोषाय ते नमः नमः सुगतये तुभ्यं शोभनाङ्गतिमीयुषे नमस्तेतीन्द्रियज्ञान सुखायानिन्द्रियात्मने कायबन्धननिर्मोक्षा दकायाय नमोऽस्तु ते नमस्तुभ्यमयोगाय योगिनामधियोगिने अवेदाय नमस्तुभ्य मकषायाय ते नमः नमः परमयोगीन्द्र वन्दिताङ्घ्रिद्वयाय ते नमः परमविज्ञान नमः परमसंयम नमः परमदृग्दृष्ट परमार्थाय तायिने नमस्तुभ्यमलेश्याय शुद्धलेश्यांशकस्पृशे नमो भव्येतरावस्था व्यतीताय विमोक्षिणे संज्ञसंज्ञद्वयावस्था व्यतिरिक्तामलात्मने नमस्ते वेतसंज्ञाय नमः क्षायिकदृष्टये अनाहाराय तृप्ताय नमः परमभाजुषे व्यतीताशेषदोषाय भवाब्धेः पारमीयुषे अजराय नमस्तुभ्यं नमस्तेस्तादजन्मने अमृत्यवे नमस्तुभ्य मचलायाक्षरात्मने अलमास्ताङ्गुणस्तोत्र मनन्तास्तावका गुणाः त्वां नाम स्मृतिमात्रेण पर्युपासिषामहि एवं स्तुत्वा जिनं देवं भक्त्या परमया सुधीः पठेदष्टोत्तरं नाम्ना सहस्रं पापशान्तये प्रसिद्धाष्टसहस्रेद्ध लक्षणं त्वां गिरां पतिं नाम्नामष्टसहस्रेण तोष्टुमुभीष्टसिद्धये श्रीमान् स्वयं भूर्वृषभः शम्भवः शम्भुरात्मभूः स्वयं प्रभः प्रभुर्भोक्ता विश्वभूरपुनर्भवः विश्वात्मा विश्वलोकेषु विश्वतश्चक्षुरक्षरः विश्वविद्विश्वविद्येषु विश्वयोनिरनश्वरः विश्वदृश्वा विभुर्धाता विश्वेषु विश्वलोचनः विश्वव्यापी विधिर्वेधाः शाश्वतो विश्वतो मुखः विश्वकर्मा जगज्येष्ठो विश्वमूर्तिर्जिनेश्वरः विश्वदृग्विश्वभूतेषु विश्वज्योतिरनीश्वरः जिनो जिष्णुरमेयात्मा विश्वरीशो जगत्पतिः अनन्तजिदचिन्त्यात्मा भव्यबन्धुरबन्धनः युगादिपुरुषो ब्रह्मा पञ्चब्रह्ममयः शिवः परः परतरः सूक्ष्मः परमेष्ठी सनातनः स्वयं ज्योतिरजो जन्मा ब्रह्मयो निरयो निजः मोहारिर्विजयी जेता धर्मचक्री दयाध्वजः प्रशान्तारिरनन्तात्मा योगी योगीश्वरार्चितः ब्रह्मविद्ब्रह्मतत्त्वज्ञो ब्रह्मोद्याविद्यतीश्वरः सिद्धो बुद्धः प्रबुद्धात्मा सिद्धार्थः सिद्धशासनः सिद्धसिद्धान्तविध्येयः सिद्धसाध्यो जगद्धितः सहिष्णुरच्युतो नन्तः प्रभविष्णुर्भवोद्भवः प्रभूष्णुरजरोजर्यो भ्राजिष्णुर्धीश्वरो व्ययः विभावसुरसम्भूष्णुः स्वयंभूष्णुः पुरातनः परमात्मा परं ज्योतिस्त्रिजगत्परमेश्वरः इति श्रीमदादिशतम्। दिव्यभाषापतिर्दिव्यः पूतवाक्पूतशासनः पूतात्मा परमज्योतिर्धर्माध्यक्षोदमीश्वरः श्रीपतिर्भगवानर्हन् नरजाविरजाः शुचिः तीर्थकृत्केवलीशानः पूजार्हः स्नातकोमलः अनन्तदीप्तिर्ज्ञानात्मा स्वयं बुद्धः प्रजापतिः मुक्तः शक्तो निराबाधो निष्कलो भुवनेश्वरः निरञ्जनो जगज्ज्योतिर्निरुक्तोक्तिर्निरामयः अचलस्थितिरक्षोभ्यः कूटस्थः स्थाणुरक्षयः अग्रणीर्ग्रामणीर्नेता प्रणेता न्यायशास्त्रकृत् शास्ता धर्मपतिर्धर्म्यो धर्मात्मा धर्मतीर्थकृत् वृषध्वजो वृषाधीशो वृषकेतुर्वृषायुधः वृषो वृषपतिर्भर्ता वृषभाङ्को वृषोद्भवः हिरण्यनाभिर्भूतात्मा भूतभृग्भूतभावनः प्रभवो विभवो भास्वान् भवो भावो भवान्तकः हिरण्यगर्भः श्रीगर्भः प्रभूतविभवो भवः स्वयं प्रभुः प्रभूतात्मा भूतनाथो जगत्प्रभुः सर्वादिः सर्वदिक्सार्वः सर्वज्ञः सर्वदर्शनः सर्वात्मा सर्वलोकेशः सर्ववित् सर्वलोकजित् सुगतिः सुश्रुतः सुश्रुत् सुवाक्सूरिर्बहुश्रुतः विश्रुतो विश्वतः पादो विश्वशीर्षः शुचिश्रवाः सहस्रशीर्षः क्षेत्रज्ञः सहस्राक्षः सहस्रपात् भूतभव्यभवद्भर्ता विश्वविद्यामहेश्वरः इति दिव्यादिशतम्। स्थविष्ठः स्थविरो ज्येष्ठः प्रष्ठः प्रेष्ठो वरिष्ठधीः स्थेष्ठो गरिष्ठो बंहिष्ठः श्रेष्ठो निष्ठो गरिष्ठगीः विश्वभृद्विश्वसृग्विश्वे विश्वभुग्विश्वनायकः विश्वासीर्विश्वरूपात्मा विश्वजित् विजितान्तकः विभावो विभयो वीरो विशोको विजरो जरन् विरागो विरतो संगो विविक्तो वीतमत्सरः विनेयजनताबन्धुर्विलीनाशेषकल्मषः वियोगो योगविद्विद्वान् विधाता सुविधिः सुधीः शांति भाग पृथ्वी मूर्ति, शांति भाग सलिलात्मक वायु मूर्तिरसंगात्मा वन्नि मूर्तिरधर्मधक् सुयज्वा यजमानात्मा सुत्वा सुत्राम पूजितः ऋत्विग् यज्ञपतिर्यज्ञो यज्ञांगममृतं हविः। व्योम मूर्तिरमूर्तात्मा निर्लेपो निर्मलोचलः सोम मूर्तिः सुसौम्यात्मा सूर्यमूर्तिर्महाप्रभः। मन्त्रविन्मन्त्रकृन्मन्त्री मन्त्रमूर्तिरनन्तगः स्वतन्त्रस्तन्त्रकृत्स्वन्तः कृतान्तान्तः कृतान्तकृत् कृतीकृतार्थः सत्कृत्यः कृतकृत्यः कृतक्रतुः नित्यो मृत्युञ्जयो मृत्यु रमृतात्मा मृतोद्भवः। ब्रह्मनिष्ठः परं ब्रह्म ब्रह्मात्मा ब्रह्मसंभवः महाब्रह्मपतिर्ब्रह्मे महाब्रह्मपदेश्वरः। सुप्रसन्नः प्रसन्नात्मा ज्ञानधर्मदमप्रभुः प्रशमात्मा प्रशान्तात्मा पुराणपुरुषोत्तमः। इति स्थविष्टादिशतम्। महाशूकध्वजो शूकः कः स्रष्टा पद्मविष्टरः पद्मीशः पद्मसम्भूतिः पद्मनाभिरनुत्तरः। पद्मयोनिर्जगद्योनिर्हृत्यः स्तुत्यः स्तुतीश्वरः स्तवनार्हो हृषीकेशो जितजेयः कृतक्रियः। गणाधिपो गणज्येष्ठो गण्यः पुण्यो गणाग्रणीः गुणाकरो गुणाम्भोधिर्गुणज्ञो गुणनायकः। गुणादरी गुणोच्छेदी निर्गुणः पुण्यगीर्गुणः शरण्यः पुण्यवाक्पूतो वरेण्यः पुण्यनायकः। अगण्यः पुण्यधीर्गुण्यः पुण्यकृत्पुण्यशासनः धर्मारामो गुणग्रामः पुण्यापुण्यनिरोधकः। पापापेतो विपापात्मा विपाप्मा वीतकल्मषः निर्द्वन्द्वो निर्मदः शान्तो निर्मोहो निरुपद्रवः। निर्निमेषो निराहारो निष्क्रियो निरुपप्लवः निष्कलङ्को निरस्तैना निर्धूतागा निराश्रवः। विशालो विपुलज्योति रतुलो चिन्त्य वैभवः सुसंवृतः सुगुप्तात्मा सुभुत् सुनयतत्त्ववित्। एकविद्यो महाविद्यो मुनिः परिवृढः पतिः धीशो विद्यानिधि साक्षी विनीता विहतान्तकः। पिता पितामहः पाता पवित्रः पावनो गतिः त्राता भिषग्वरो वर्यो वरदः परमः पुमान्। कविः पुराणपुरुषो वर्षीयानृषभः पुरुः प्रतिष्ठा प्रसवो हेतुर्भुवनैक पितामहः। इति महादिशतम्। श्रीवृक्षलक्षणः श्लक्ष्णो लक्षण्यः शुभलक्षणः निरक्षः पुण्डरीकाक्षः पुष्कलः पुष्करीक्षणः। सिद्धिदः सिद्धसङ्कल्पः सिद्धात्मा सिद्धसाधनः बुद्धबोध्यो महाबोधिर्वर्धमानो महर्धिकः। वेदाङ्गो वेदविद्वेद्यो जातरूपो वेदाम्बरः वेदवेद्यः स्वसंवेद्यो विवेदो वदताम्बरः। अनादि निधनो व्यक्तो व्यक्तवाग् व्यक्त शासनः युगादि कृद्युगाधारो युगादिर्जगदादिजः अतीन्द्रो तीन्द्रियो धीन्द्रो महेन्द्रो तीन्द्रियार्थदृक् अनिन्द्रियो हमिन्द्रार्च्यो महेन्द्र महितो महान् उद्भवः कारणं कर्ता पारगो भवतारकः अगाह्यो गहनं गुह्यं परार्ध्यः परमेश्वरः अनन्तर्धिरमीयर्धि रचिन्त्यर्धिः समग्रधीः प्राग्र्यः प्राग्रहरोऽभ्यग्रः प्रत्यग्रोऽग्र्योऽग्रिमोऽग्रजः महातपा महातेजा महोदर्को महोदयः महायशा महाधामा महासत्त्वो महाधृतिः महाधैर्यो महावीर्यो महासम्पन्महाबलः महाशक्तिर्महाज्योतिर्महाभूतिर्महाद्युतिः महामतिर्महानीतिर्महाक्षान्तिर्महादयः महाप्राज्ञो महाभागो महानन्दो महाकविः महामहामहाकीर्तिर्महाकान्तिर्महावपुः महादानो महाज्ञानो महायोगो महागुणः महामहपतिः प्राप्त महाकल्याणपञ्चकः महाप्रभुर्महाप्राति हार्याधीशो महेश्वरः इति श्रीवृक्षादिशतम्। महामुनिर्महामौनी महाध्यानो महादमः महाक्षमो महाशीलो महायज्ञो महामखः महाव्रतपतिर्मह्यो महाकान्तिधरोऽधिपः महामैत्रीमयो मेयो महोपायो महोमयः महाकारुणिको मन्ता महामन्त्रो महायतिः महानादो महाघोषो महेज्यो महसाम्पतिः महाध्वरधरो धुर्यो महौदार्यो महिष्ठवाक् महात्मा महसान्धाम महर्षिर्महितोदयः महाक्लेशाङ्कुशः शूरो महाभूतपतिर्गुरुः महापराक्रमो नन्तो महाक्रोधरिपुर्वशी महाभवाब्धिसन्तारी महामोहाद्रिसूदनः महागुणाकरः क्षान्तो महायोगीश्वरः शमी महाध्यानपतिर्ध्यात महाधर्मा महाव्रतः महाकर्मारिहात्मज्ञो महादेवो महेशिता सर्वक्लेशापहः साधुः सर्वदोषहरो हरः असङ्ख्येयो प्रमेयात्मा शमात्मा प्रशमाकरः सर्वयोगीश्वरो चिन्त्यः श्रुतात्मा विष्टरश्रवाः दान्तात्मा दमतीर्थेषु योगात्मा ज्ञानसर्वगः प्रधानमात्मा प्रकृतिः परमः परमोदयः प्रक्षीणबन्धः कामारिः क्षेमकृत्क्षेमशासनः प्रणवः प्रणयः प्राणः प्राणदः प्राणतीश्वरः प्रमाणं प्रणिधिर्दक्षो दक्षिणोध्वर्युरध्वरः आनन्दो नन्दनो नन्दो वन्द्यो निन्द्योऽभिनन्दनः कामः कामदः काम्यः कामधीनुररिञ्जय इति महामुन्यादिशतम्। असंस्कृत सुसंस्कारः प्राकृतो वैकृतान्तकृत् अन्तकृत् कान्तगुः कान्तश् चिन्तामणिरभीष्टदः अजितो जित कामारी रमितो मित शासनः जित क्रोधो जिता मित्रो जित क्लेशो जितान्तकः जिनेन्द्रः परमानन्दो मुनीन्द्रो दुन्दुभिस्वनः महेन्द्रवन्द्यो योगीन्द्रो यतीन्द्रो नाभिनन्दनः नाभेयो नाभिजो जातः सुव्रतो मनुरुत्तमः अभेद्यो नत्ययो नाश्वा नधिकोधिगुरुः सुगीः सुमेधाविक्रमी स्वामी दुराधर्षो निरुत्सुकः विशिष्टः शिष्टभुक्षिष्टः प्रत्ययः कामनो नघः क्षीमी क्षीमङ्करो क्षय्यः क्षीमधर्मपतिः क्षमी अग्राह्यो ज्ञाननिग्राह्यो ध्यानगम्यो निरुत्तरः सुकृती धातुरिज्यार्हः सुनयश्चतुराननः श्रीनिवासश्चतुर्वक्त्रश्चतुरास्यश्चतुर्मुखः सत्यात्मा सत्यविज्ञानः सत्यवाक्सत्यशासनः सत्याशीः सत्यसन्धानः सत्यः सत्यपरायणः स्थेयांस्थवीयान् नेदीयान् दवीयान् दूरदर्शनः अणोरणीयाननुर्गुरुराद्यो गरीयसाम् सदा योगः सदा भोगः सदा तृप्तः सदा शिवः सदा गतिः सदा सौख्यः सदा विद्यः सदोदयः सुघोषः सुमुखः सौम्यः सुखदः सुहितः सुहृत् सुगुप्तो गुप्तभृद्गोप्ता लोकाध्यक्षोदमीश्वरः इति असंस्कृतादिशतम्। बृहद् बृहस्पतिर्वाग्मी वाचस्पतिरुदारधीः मनीषी धिषणो धीमान् क्षेमुशीषो गिराम्पतिः नैकरूपो नयोत्तुङ्गो नैकात्मा नैकधर्मकृत् अविज्ञेयो प्रतर्क्यात्मा कृतज्ञः कृतलक्षणः ज्ञानगर्भो दयागर्भो रत्नगर्भः प्रभास्वरः पद्मगर्भो जगद्गर्भो हेमगर्भः सुदर्शनः लक्ष्मीवांस्त्रिदशाध्यक्षो दढीयानिन ईशिता मनोहरो मनोज्ञाङ्गो धीरो गम्भीरशासनः धर्मयूपो दयायागो धर्मनीमिर्मुनीश्वरः धर्मचक्रायुधो देवः कर्महाधर्मघोषणः अमोघवागमोघाज्ञो निर्ममो मूघशासनः सुरूपः सुभगस्त्यागी समयज्ञः समाहितः सुस्थितः स्वास्थ्यभाक्स्वस्थो नीरजस्को निरुद्धवः अलेपो निष्कलङ्कात्मा वीतरागो गतस्पृहः वश्येन्द्रियो विमुक्तात्मा निःसपत्नो जितेन्द्रियः प्रशान्तोऽनन्तधामर्षिर्मङ्गलं मलहानयः अनीदृगुपमा भूतो दिष्टिर्दैवमगोचरः अमूर्तो मूर्तिमानेको नैको नानैकतत्त्वदृक् अध्यात्मगम्यो गम्यात्मा योगविद्योगी वन्दितः सर्वत्र गः सदा भावी त्रिकाल विषयार्थदृक् शंकर शंवदो दान्तो दमी क्षान्तिपरायणः अधिपः परमानन्दः परात्मज्ञः परात्परः त्रिजगद्वल्लभोऽभ्यर्च्यस्त्रिजगन्मङ्गलोदयः त्रिजगत्पतिपूज्याङ्घ्रिस्त्रिलोकाग्रशिखामणिः इति बृहदादिशतम्। त्रिकालदर्शी लोकेशो लोकधाता दृढव्रतः सर्वलोकातिगः पूज्यः सर्वलोकैकसारथिः पुराणः पुरुषः पूर्वः कृतपूर्वाङ्गविस्तरः आदिदेवः पुराणाद्यः पुरुदेवोऽधिदेवता युगमुख्यो युगज्येष्ठो युगादिस्थितिदेशकः कल्याणवर्णः कल्याणः कल्यः कल्याणलक्षणः कल्याणप्रकृतिर्दीप्र कल्याणात्मा विकल्मषः विकलङ्कः कलातीतः कलिलग्नः कलाधरः देवदेवो जगन्नाथो जगद्बन्धुर्जगद्विभुः जगद्धितैषी लोकज्ञः सर्वगो जगदग्रजः चराचरगुरुर्गोप्यो गूढात्मा गूढगोचरः सद्यो जातः प्रकाशात्मा ज्वलज्ज्वलनसप्रभः आदित्यवर्णो भर्माभः सुप्रभः कनकप्रभः सुवर्णवर्णो रुक्माभः सूर्यकोटिसमप्रभः तपनीयनिभस्तुङ्गो बालार्काभोन्नलप्रभः सन्ध्याभ्रबभ्रुर्हेमाभस्तप्तचामीकरच्छविः निष्टप्तकनकच्छायः कनत्काञ्चनसन्निभः हिरण्यवर्णः स्वर्णाभः शातकुम्भनिभप्रभः द्युम्नाभोजातरूपाभस्तप्तजाम्बूनदद्युतिः सुधौतकलधौतश्रीः प्रदीप्तो हाटकद्युतिः शिष्टेष्टः पुष्टिदः पुष्टः स्पष्टः स्पष्टाक्षरः क्षमः शत्रुघ्नो प्रतिघोमूघः प्रशास्ता शासिता स्वभूः शान्तिनिष्ठो मुनिज्येष्ठः शिवतातिः शिवप्रदः शान्तिदः शान्तिकृच्छान्तिः कान्तिमान् कामितप्रदः श्रेयो निधिरधिष्ठान मप्रतिष्ठः प्रतिष्ठितः सुस्थिरः स्थावरः स्थास्नुः प्रथीयान् प्रथितः पृथुः इति त्रिकालदर्श्यादिशतम्। दिग्वासावातरसनो निर्ग्रन्थेषु दिगम्बरः निष्किञ्चनो निराशंसो ज्ञानचक्षुरमुमुहः तेजोराशिरनन्तौजा ज्ञानाब्धिशीलसागरः तेजोमयोमितज्योतिर्ज्योतिर्मूर्तिस्तमोपः जगच्चूडामणिर्दीप्तः शंवान्विघ्नविनायकः कलिघ्नः कर्मशत्रुघ्नो लोकालोकप्रकाशकः अनिद्रालुरतन्द्रालुर्जागरूकः प्रमामयः लक्ष्मीपतिर्जगज्ज्योतिर्धर्मराजः प्रजाहितः मुमुक्षुर्बन्धमोक्षज्ञो जिताक्षोजितमन्मथः प्रशान्तरसशैलूषो भव्यपेटकनायकः मूलकर्ताखिल ज्योतिर्मलघ्नो मूलकारणः आप्तो वागीश्वरः श्रेयान् श्रायसोक्तिर्निरुक्त्वा प्रवक्ता वचसामीशो मारजिद्विश्वभाववित् सुतनुस्तनुनिर्मुक्तः सुगतो हतदुर्नयः श्रीशः श्रीश्रितपादाब्जो वीतभीरभयङ्करः उत्सन्नदोषो निर्विघ्नो निश्चलो लोकवत्सलः लोकोत्तरो लोकपतिर्लोकचक्षुरपारधीः धीरधीर्बुद्धसन्मार्गः शुद्धः सूनृतपूतवा प्रज्ञापारमितः प्राज्ञो यतिर्नियमितेन्द्रियः भदन्तो भद्रकृद्भद्रः कल्पवृक्षो वरप्रदः समुन्मूलितकर्मारिः कर्मकाष्ठाशुषुक्षणिः कर्मण्यः कर्मठः प्रांशुर्हेयादेयविचक्षणः अनन्तशक्तिरच्छेद्यस्त्रिपुरारिस्त्रिलोचनः त्रिनेत्रस्त्र्यम्बकस्त्र्यक्षः केवलज्ञानवीक्षणः समन्तभद्रः शान्तारिर्धर्माचार्यो दयानिधिः सूक्ष्मदर्शी जितानङ्गः कृपालुर्धर्मदेशकः शुभन्युः सुखसाद्भूतः पुण्यराशिरनामयः धर्मपालो जगत्पालो धर्मसाम्राज्यनायकः इति दिग्वासाद्यष्टोत्तरशतम् धाम्नां पते तवामूनि नामान्यागमकोविदैः समुच्चितान्यनुध्यायन् पुमान् पूतस्मृतिर्भवेत् गोचरोऽपि गिरामासां त्वमवाग्गोचरो मतः स्तोता तथाप्यसन्दिग्धं त्वत्तोऽभीष्टफलं भजेत् त्वमतोऽसि जगद्बन्धुस्त्वमतोऽसि जगद्भिषट् त्वमतोऽसि जगद्धाता त्वमतोऽसि जगद्धितः त्वमेकं जगतां ज्योतिस्त्वं द्विरूपोपयोगभाक् त्वं त्रिरूपैकमुक्त्यङ्गं सोत्थानन्तचतुष्टयः त्वं पञ्चब्रह्मतत्त्वात्मा पञ्चकल्याणनायकः षड्भेदभावतत्त्वज्ञस् त्वं सप्तनयसङ्ग्रहः दिव्याष्टगुणमूर्तिस्त्वं नवकेवललब्धिकः दशावतारनिर्धार्यो मां पाहि परमेश्वर युष्मन्नामावलीदृग्ध विलसत्स्तोत्रमालया भवन्तं परिवस्यामः प्रसीदानुगृहाणनः इदं स्तोत्रमनुस्मृत्य पूतो भवति भाक्तिकः यः सत्पाठं पठत्तेनं स स्यात् कल्याणभाजनम् ततः सदेदं पुण्यार्थी पुमान् पठतु पुण्यधीः पौरुहूतीं श्रियं प्राप्तुं परमामभिलाषुकः स्तुतिः पुण्यगुणोत्कीर्तिः स्तुता भव्यः प्रसन्नधीः निष्ठितार्थो भवान् स्तुत्यः फलं नैश्रेयसंसुखम् स्तुत्वेति मघवादेवं चराचरजगद्गुरुं ततस्तीर्थविहारस्य व्यधात् प्रस्तावनामिमाम् यः स्तुत्यो जगतां त्रयस्य न पुनः स्तुता स्वयं कस्यचित् धियो योगिजनस्य यश्च नतरां ध्याता स्वयं कस्यचित् योनन्त्रीं नयते नमस्कृतिमलं नन्तव्यपक्षीक्षणः स श्रीमान् जगतान्त्रयस्य च गुरुर्देवः पुरुः पावनः तं देवं त्रिदशाधिपार्चितपदं घातिक्षयानन्तरं प्रोत्थानन्तचतुष्टयं जिनमिनं भव्याब्जिनीनामिनं मानस्तम्भविलोकनानतजगन् मान्यं त्रिलोकीपतिं प्राप्ता चिन्त्य बहिर्विभूतिमनघं भक्त्या प्रवन्दामहे।